इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः अद्यारभ्य ओडिशायाः द्विदिवसीययात्रायां भविष्यति। राष्ट्रपतिः सायं भुवनेश्वरनगरस्य बिजुपट्नायक अन्ताराष्ट्रियविमानस्थानकम् आगमिष्यति, यतः सा अखिलभारतीयचिकित्साविज्ञानसंस्थानं भुवनेश्वरं गत्वा तस्य पञ्चमस्य दीक्षान्तसमारोहस्य शोभां वर्धयिष्यति। श्वः राष्ट्रपतिः मुर्मुः रेवेन्शाविश्वविद्यालयस्य त्रयोदशतमे वार्षिकदीक्षान्तसमारोहे भागं गृहीष्यति, तथा च कटकनगरस्य रेवेन्शा बालिका उच्चविद्यालयस्य त्रयाणां भवनानां पुनर्विकासस्य आधारशिलां स्थापयिष्यति। राष्ट्रपतिः कटकनगरे आदिकवि सरलादासस्य जन्मदिवसस्य अवसरे चतुर्विंशत्युत्तरद्विसहस्रतमवर्षस्य कलिङ्गरत्नपुरस्कारस्य प्रदानमपि करिष्यति। विदेशमन्त्री एस् जयशंकरः अद्यारभ्य चीनदेशस्य द्विदिवसीययात्रायां भविष्यति। विदेशमन्त्री श्वः तियान्जिन् नगरे एस्सीओ इति शंघाई सहकार संघटनस्य विदेशमन्त्रिणां सभायां भागं गृहीष्यति। विदेशमन्त्रिणः विभिन्नक्षेत्रेषु एस्सीओ सहकार्यस्य प्रमुखेषु अन्ताराष्ट्रिय क्षेत्रीय विषयेषु च विचाराणाम् आदान प्रदानं करिष्यन्ति। एस्सीओ समूहे भारतं, चीना, रशिया, ईरान, कजकिस्तान, किर्गिस्तान, पाकिस्तान, तजकिस्तान, उज्बेकिस्तान, बेलारूस इति दश सदस्यदेशाः सन्ति। चीनदेशः एस्सीओ संघस्य वर्तमानः अध्यक्षः वर्तते। डॉक्टर जयशंकरः एस्सीओ विदेशमन्त्रिणां सभया सह द्विपक्षीयसभाः अपि करिष्यति। डॉक्टर जयशंकरः चीनदेशस्य भ्रमणकाले चीनदेशस्य समकक्षं वांग यी इत्यनेन सह मिलितुं शक्नोति। द्विपक्षीयसम्बन्धानां सामान्यीकरणाय भारतचीनयोः दीर्घकालीनसीमाविवादस्य निवारणाय च द्वयोः मध्ये चर्चा बहु महत्वपूर्णा भविष्यतीति अपेक्षा वर्तते। भारतीय अन्तरिक्षयात्रिसमूहस्य दलनायकः शुभांशुशुक्लस्य अपि च एक्जिमो 4 मिशन इत्यस्य अन्यत्रयचालकदलस्य सदस्यानां पृथिवी प्रत्यावर्तनयात्रा अद्य आरभ्यते। केन्द्रीय विज्ञान एवं प्रौद्योगिकी मन्त्री डॉ जितेन्द्र सिंहः सोशल मीडिया सन्देशे अवदत् यत् अद्य भारतीय मानक समयानुसारं सायं सार्ध चतुर्वादने अनडॉकिंग निर्धारितं वर्तते, यद्धि चालकदलं प्रायः सायं त्रिवादने पृथिव्याम् आगमिष्यति। दलनायकः श्रीशुक्लः अन्ताराष्ट्रिय अन्तरिक्षस्थानकं प्रति चतुर्दश दिवसीय अभियाने आसीत्। यात्रायाः कालखण्डे दलनायकः श्रीशुक्लः 7 इण्डोस्पेसिफिक् प्रयोगान् अकरोत्। उत्तरप्रदेशस्य लखनऊनगरे वार्ताहरैः सह भाषणं कुर्वन् शुभांशुशुक्लस्य पिता शम्भुदयालः अवदत् यत् ते ईश्वरं प्रार्थयन्ति यत् सः सुरक्षितरूपेण आगच्छेत्। केन्द्रेण राज्येभ्यः केन्द्रशासितप्रदेशेभ्यः च अमानक उर्वरकाणां विषये तत्कालं कठोरक्रियान्वयनं कर्तुं निर्देशः दत्तः वर्तते। केन्द्रीय कृषि कल्याण मन्त्री शिवराज सिंह चौहानः सर्वेषां राज्यानां केन्द्रशासित प्रदेशानां च मुख्यमन्त्रिभ्यः पत्रं लिखितवान्। अवधेयं यत् देशे सर्वत्र फेक फर्टिलाइजर इति औपधिक उर्वरकस्य विक्रयणं, अनुदानितस्य उर्वरकस्य कृष्णविपणनं, बलात् टैगिंग इत्यादीनां अवैधकार्याणां निवारणं कर्तुम् उद्देश्यं कृत्वा एतत् पत्रं लिखितं वर्तते। केन्द्रीय रक्षामन्त्री राजनाथसिंहः अवदत् यत् सिन्दूराभियानावधौ ब्रह्मोस् क्षेपणास्त्रस्य प्रदर्शनम् उल्लेखनीयम् आसीत्। सिन्दूराभियानस्य अनन्तरं विदेशेषु अपि ब्रह्मोस् क्षेपणास्त्रस्य आवश्यकता वर्धिता अस्ति।
जो ऑपरेशन सिंदूर हुआ उसके बाद दुनिया के लगभग 14-15 देशों ने भारत से ब्रह्मोस मिसाइल की मांग की है। तब ब्रह्मोस मिसाइल अब लखनऊ से भी एक्सपोर्ट की जाएगी। यह फैसिलिटी रक्षा क्षेत्र में जो हमारी आत्मनिर्भरता है उसको मजबूती देगी और साथ ही इससे रोजगार का भी सृजन होगा। और मेरा प्रयास यही है कि यहां और इंडस्ट्रीज भी आए ताकि लखनऊ के साथ साथ प्रदेश का भी तेजी से विकास।
इति वार्ताः।